एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तुत्री रत्नावली शर्मा। सौर्य वायुयान सेवायाः विमानं ह्यः त्रिभुवनान्तरराष्ट्रिय विमानस्थलात् उड्डयनस्य क्रमे दुर्घटितं सत् विमाने आरूढाः 18 जनाः मृताः सन्ति। काष्ठमाण्डपात् 29 जनान् आरुह्य पोखरास्थानं प्रति प्रस्थितस्य विमानस्य उड्डयनक्रमे धावनमार्गस्य निकटस्थे गर्ते निपत्य दुर्घटनानन्तरं अग्निदाहे सति विमाने आरूढाः 18 जनाः मृताः सन्ति। विमानचालकः आहतावस्थायां उद्धृत्य उपचाराय चिकित्सालयं प्रापितो स्थिति च नेपाल नागरिक उड्डयन प्राधिकरणेन ज्ञापितं वर्तते। घटनायां निपत्य विमानस्य सहचालकेन सुशान्त कटुवाल इत्यनेन सहिताः अमित मान महर्जन, सागर आचार्य, दिलीप वर्मा, मुनराज शर्मा, मनुराज शर्मा, आश्विन निरौला, सुदीप लाल जोशी, सर्वेश मरासिनी, श्याम बिन्दुकार, नवराज आले, राजाराम आचार्य, प्रिजा खतिवड़ा, अधिराज शर्मा, उद्धव पुरी, यज्ञप्रसाद पौड़ील, सन्तोष महतो, पुण्यरत्न शाही, एको एमन देशीय नागरिक आरिफ रेडा च मृता वर्तन्ते। मृतक अधिराज शर्मा बालकको स्थिति सौर्य वायुयान सेवाया ज्ञापितमस्ति। घटनायां निपत्य गभीरेण आहतस्य विमान चालकस्य मनीष रत्न शाक्यस्य सीना मंगलवर्तिनी काष्ठमण्डप चिकित्सा महाविद्यालय शिक्षण चिकित्सालय उपचार जायमानो स्थिति नेपाल नागरिक उड्डयन प्राधिकरणेन ज्ञापितं वर्तते। समेषां मृतकानां शवः सम्प्रति चिकित्सकीय परीक्षणाय महाराजगंज वर्तिनी त्रिभुवन विश्वविद्यालय शिक्षण चिकित्सालय स्थापिताः वर्तन्ते। समेषां मृतकानां चिकित्सकीय परीक्षणस्य अन्य प्राविधिक प्रक्रियायाः पूरणस्य च अनन्तरमेव शवाः परिवारजनेभ्य अर्पयिष्यन्ते। एतदर्थं द्वि त्रिदिनानि अपेक्षन्ते इति नागरिक उड्डयन प्राधिकरणस्य प्रवक्ता हंसराज पाण्डे अज्ञापयत्। दुर्घटितं विमानं संभारस्य कृते आवश्यक प्राविधिकान् कर्मचारिणश्च आरुह्य पोखरास्थानाय प्रस्थितम् आसीत्। विमानस्य दुर्घटनानन्तरं प्रधानमन्त्री केपी शर्मा ओली त्रिभुवनान्तरराष्ट्रिय विमानस्थलं प्राप्य घटनास्थलस्य अवलोकनेन सह घटनायाः विषये विमानस्थलस्य उच्चाधिकारीभिः ज्ञातवान् आसीत्। प्रधानमन्त्रिणा ओलिना सहैव घटनायाः विषयं ज्ञातुं गृहमन्त्री रमेश लेखकः, संस्कृति पर्यटन नागरिक उड्डयन मन्त्री बद्री पाण्डे च विमानस्थलं प्राप्ता आसन्। विमानस्थलस्य उच्चाधिकारीभिस्सह घटनायाः विषये ज्ञानानन्तरं पर्यटन मन्त्री पाण्डे विमानं उड्डयनस्य क्रमे धावन मार्गस्य निकटस्थे स्थले संघटनात् दुर्घटितम् इति प्रारम्भिकं ज्ञापनम् प्राप्तमस्ति। सम्पूर्ण तथ्यस्य अन्वेषणाय अतिरिक्तं विस्तृतं अध्ययनम् आवश्यकमस्ति इति असूचयत्। पर्यटन मन्त्री पाण्डे विमानं किञ्चित् प्राचीनं सदपि प्राविधिक रूपेण उड्डयनाय योग्यमेव दृष्टमस्ति इति अगदत्। सर्वकारेण सौर्यवायु सेवायाः विमानस्य दुर्घटनायाः विषये विस्तृताध्ययनाय अनुसन्धानायोगः संघटितो वर्तते। सिंहप्रसादवर्तिनी प्रधानमन्त्री मन्त्री परिषद कार्यालये ह्य उपविष्टेन मन्त्री परिषदः आकस्मिक उपवेशेन नेपाल नागरिक उड्डयन प्राधिकरणस्य पूर्व महानिर्देशकस्य रतीशचन्द्र लाल सुमन इत्यस्य संयोजकत्वे पञ्चसदस्यीयम् अनुसन्धानायोगं संघटयितुं निर्णीतमिति सर्वकारस्य प्रवक्ता संचार सूचना प्रविधि मन्त्री च पृथ्वी सुब्बा गुरूङ अज्ञापयत्। आयोगे नेपाल वायु सेवा निगमस्य क्याप्टेन पदीय दीपु ज्वार्सन, पुल्चोक महाविद्यालयस्य प्राध्यापक सुदीप भट्टराई, श्री वायुयान सेवायाः कर्मचारी संजय अधिकारी च सदस्या वर्तन्ते। प्राधिकरणस्य विमान उड्डयन यातायात व्यवस्था कार्यालयस्य अधिकृत मुकेश डंगुल, सदस्य सचिव स्थिति मन्त्री गुरूङ असूचयत्। आयोगाय घटना विस्तरेण अधित्य प्रतिवेदन प्रस्तुतुं पञ्चचत्वारिंशतो दिनानाम् अवधि निर्धारितो वर्तते। उपवेशेन विमान सेवा संस्थानानाम् अनिवार्येण प्राविधिक परीक्षणं विधातव्यम्, अस्य कार्यस्य अनुगमनं नागरिक उड्डयन प्राधिकरणेन विधातुं च निर्णीतमस्ति। सर्वकारेण शोकस्य अस्मिन् समये अद्य श्रावणस्य दशमे दिनांके विहिवासरे शोकाय राष्ट्रिय ध्वजं अर्धं नमयितुं निर्णीतमस्ति च मन्त्री गुरूङ असूचयत्। राष्ट्रपति रामचन्द्र पौडेल संघीय लोकतान्त्रिक गणतन्त्रं संस्थागतम् अभिधाय समृद्ध नेपाल निर्माणस्य कृते सर्वैर्मिलित्वा प्रवर्तयितुम् अनुरूणधी भीमसेन थापा प्रतिष्ठानेन ह्य राष्ट्रपति कार्यालय आयोजितम पुरस्कार वितरण समारोहम सम्बोधयन् राष्ट्रपति पौडेलः विभिन्नाभि जातिभि संस्कृतिभि परम्पराभिश्च युक्तम नेपालम राष्ट्रियकतायां संयोज्य अग्रेवर्धनीयम् इत्यभाषत। नेपालस्य स्वतन्त्रतायाः अखण्डतायाश्च कृते भीमसेन थापा इत्यस्य योगदानम् महत्वपूर्णमस्तीति चर्चयन् राष्ट्रपति पौडेलः नेपालस्य इतिहासम् आविश्वम् व्यापकम् विधाय नेपालः सर्वदैव स्वतन्त्र देशोऽस्तीति सन्देशम् प्रवाहयितुम् आवश्यकता अस्तीति प्रावोचत्। तदवसरे राष्ट्रपति पौडेलः एतद् विक्रम वर्षेण राष्ट्रिय विभूति भीमसेन थापा पुरस्कारेण मृगेन्द्र सम्झना चिकित्सा गुठी संस्थायाः संस्थापकाध्यक्षम् वरिष्ठ चिकित्सकम् मृगेन्द्र राज पाण्डेयम् सम्मानितवान् अस्ति। प्रधानमन्त्री केपी शर्मा ओली भाषते बुद्ध दर्शनम् विज्ञाने आधृतम् अस्तीत्यतः तस्य दृढतायै कार्यं विधीयते। नेपाल मण्डल साहित्यिक सांस्कृतिक संस्थया ह्य काष्ठमण्डपे आयोजिते डाक्टर अजय क्रान्ति इत्यनेन विरचितस्य बुद्धका मौलिक दर्शन इति नामकस्य पुस्तकस्य विमोचन कार्यक्रमे प्रधानमन्त्री ओली नेपालः सामाजिक आर्थिक धार्मिक प्राकृतिक रूपेण विविधतायुतः देशोऽस्तीत्यतः सर्वकारः नेपालः सर्वेषां नेपालीनां संयुक्त सम्पदस्तीति विषयम् आत्मसात् करोतीति समस्पष्टयत्। नेकपा माओवादी केन्द्रस्य अध्यक्षः पुष्पकमल दाहाल प्रचण्डः भाषते स्वस्य नेतृत्वस्य सर्वकारः सुशासनं संस्थाप्य निष्कलंको भूत्वा सत्तातः बहिर्भूतो वर्तते। नेपाल कम्युनिष्ट दलस्य संस्थापक नेतुः नरबहादुर कर्माचार्यस्य स्मृतिसभायां ह्यः अध्यक्षः प्रचण्डः अपारदर्शी रूपेण सर्वकारस्य परिवर्तनं सम्भूतमस्तीति आरोपयत्। संसदीय श्रवण समित्या निर्वाचनायुक्त पदे प्रस्तावितस्य कृष्णमान प्रधानस्य ह्य श्रवणं विहितमस्ति। आयुक्त पदे प्रस्तावितस्य प्रधानस्य नाम्नः अनुमोदनं कर्तव्यं न वेति निर्णयः समित्या अपरेण उपवेशेन विधास्यते इति समितेः सभापतिः पशुपति शमशेर जबरा अज्ञापयत्। बागमती प्रदेशस्य मुख्यमन्त्री पदस्य बहादुर सिमलामा विधेन पदगोपनीयतयो शपथं गृहीतमस्ति। मुख्यमन्त्रिणा लामाभिधेन शपथग्रहणानन्तरं ह्य एव मन्त्री परिषद विस्तारिता वर्तते। विस्तारिताया मन्त्री परिषदि मुख्यमन्त्रिणा सह 10 सदस्याः सन्ति। नेकपा एमाले दलस्य पक्षतः प्रकाश श्रेष्ठ कृषि पशुपक्षी मन्त्रीपदे, किशोर सिलवालः वन वातावरण मन्त्रीपदे, किरण थापा स्वास्थ्य मन्त्रीपदे, अमन मास्की भौतिक योजना पूर्वाधार मन्त्रीपदे, सुकमाया तामाङ उद्योग वाणिज्य भूमि प्रशासन मन्त्रीपदे, प्रेम भक्त महर्जन श्रमवृत्ति यातायात मन्त्रीपदे च नियुक्ता सन्ति।